सर्वेषां स्वागतं. प्रार्थनया आरम्भं कुर्मः. का पठितुम् इच्छति श्लोकम् अथवा कः? अस्तु, अहम् एकवारम् आरम्भं करोमि, इच्छति चेत् आगच्छतु. ॐ शुक्लाधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये.
सरस्वती नमस्तुभ्यं वरदे कामरूपिणि, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा. गुरुर्ब्रह्म गुरुर्विष्णु गुरुर्देवो महेश्वरः, गुरु साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः. This also bhagini, Om Sahana Bhavatu, Sahanau Bhunaktu, Sahaviryam Karvavahai, Tejasvina Vadidamastha Vitvishavahai. Om Shanti Shanti Shantihi.
Dhanyavada bhagini. So atra swaraha santikalo, sa iti adaha reka asti. न इति उपरि रेखा अस्ति, अतः ओ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषा. ॐ शान्ति शान्ति शान्तिः. सो एवं वदामः.
आं भगिनि, क्षम्यतां.
न न न, चिन्ता मास्तु भगिनि.
ऐ लर्न् दट् बट् ऐ फर्गाट्.
ऐ नो ऐ नो, नास्ति चिन्ता. रामो राजमणि सदा विजयते, रामं रमेशं भजे, रामेणाभिहता निशाचरचमूः, रामाय तस्मै नमः. रामान्नास्ति परायणं परतरं, रामस्य दासोऽस्म्यहं, रामे चित्तलयः सदा भवतु मे, भो राम मामुद्धर. अस्तु, अद्यतनविषयः विभक्तिवल्लर्याम् अस्ति खलु. स्वागतं भगिनि, नमस्कारः.
परमेश्वरन् हियर्, ऐ केन् हियर् यू नौ.
उत्तमं महोदय, उत्तमं, स्वागतम्. अस्तु, अद्य वयं षष्टिविभक्तिं समापितवन्तः खलु. समाप्य सप्तमीं प्रति गतवन्तः खलु, आं वा?
आं भगिनि.
अत्र सप्तमी विभक्ति इति वदामः चेत् प्रथमः अस्ति आधारः. कुत्र कुत्र वसति आधारः? नगरे, ग्रामे, देशे इति, गृहे. अत्र स्थानं सूचयति सप्तमी विभक्ति, स्थलं, स्थानम्, आधारं सूचयति. सर्वेषामपि वस्तूनां कोऽपि आधारः अस्ति इत्युक्ते कुत्रचित् भवति. एवं यः आधारः भवति तस्य सप्तमी विभक्तिः भवति. उदाहरणं, मम गृहे एकः शुनकः अस्ति. शुनकः कुत्र अस्ति? शुनकः गृहे अस्ति. गृहं, गृहे. अधः सूचितान् आधारभूतान् शब्दान् आश्रित्य वाक्यानि रचयत. ततः पूर्वं रूपाणि पश्यामः. वयं जानीमः रामे इति, रामे ग्रामे ग्रामः ग्रामे ग्रामयोः ग्रामेषु रामे ग्रामयोः रामेषु एवमेव नपुंसकलिङ्गे अपि समानरूपाणि ज्ञाने ज्ञानयोः ज्ञानेषु पुस्तके पुस्तकयोः पुस्तकेषु अस्तु अग्रे स्त्रीलिङ्गे सर्वत्र द्विवचने योः 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 परन्तु उकारः अस्ति चेत् वोः ऋकारः अस्ति चेत् रोः इति भवति स्त्रीलिङ्गे अपि समानमेव योः वोः रोः पित्रोः नपुंसकलिङ्गे नो भवति नो वारिणि वारिणोः नोः नोः परन्तु अकारान्त नपुंसकलिङ्गे योः एवमस्ति सर्वत्र शु अकारान्तपुल्लिङ्गे रामेषु ज्ञानेषु पुस्तकेषु आकारान्त ई आकारान्त अस्ति चेत् सु भवति अत्र एव सु अपि च सर्वनामपदं स्त्रीलिङ्गे एव सु अन्य सर्वत्र शु एव अकारान्तपुल्लिङ्गे अकारान्तनपुंसकलिङ्गे एषु भवति अन्य सर्वत्र यथा मूलरूपम् अस्ति मूलरूपं तथा एव लिखित्वा शु योजनीयं हरि हरिषु गुरु गुरुषु पितृ पितृषु मति मतिषु गौरी गौरीषु धेनु धेनुषु वधू वधूषु मातृ मातृषु एवमेव नपुंसकलिङ्गे अपि वारि वारिषु मधु मधुषु एवमेव भवति अग्रे वयं सर्वनामपदविषये पठामः इदानीं केवलं नामपदानि बेङ्गलूरुनगरात् जयनगरम् उद्यानं सस्यं फलं बीजानि एवमस्ति एतदपि वयं कृतवन्तः बेङ्गलूरुनगरे जयनगरमस्ति जयनगरे उद्यानम् उद्याने सस्यं सस्ये फलं फले बीजानि अस्तु इदानीम् एतत् कुर्मः विद्यालयः अस्ति अस्तु आरम्भं कुर्मः वा श्रीनिवासमहोदय
आं भगिनि विद्यालये प्रकोष्ठः अस्ति
सम्यक् विद्यालये प्रकोष्ठः अस्ति अम्ब वक्तुमिच्छति वा अस्तु परमेश्वर महोदय विद्यालये प्रकोष्ठः अस्ति ग्रन्थालयः कुत्र अस्ति अन्म्यूट् करोतु महोदय अस्तु शारदा भगिनि
आं भगिनि प्रकोष्ठे ग्रन्थालयम् अस्ति
ग्रन्थालयः लयः एव अस्ति इति वदामः चेत् प्रथमाविभक्तिरूपमेव ग्रन्थालयं पश्यामि ग्रन्थालयं गच्छामि इति अस्ति चेत् द्वितीयाविभक्ति भवति नो चेत् प्रकोष्ठे
ग्रन्थालयः अस्ति
सम्यक् भवती जानाति एव सम्यक् अस्तु केतकि भगिनी अग्रे अग्रिमं
ग्रन्थालये नीतिविषयाः सन्ति
ततः पूर्वं ग्रन्थालये ग्रन्थः
ग्रन्थालये ग्रन्थः
अस्ति ग्रन्थः अस्ति
ओ ग्रन्थः अस्ति
ग्रन्थालये ग्रन्थः अस्ति अस्तु सविता भगिनी
भगिनी
निश्चयेन परन्तु अत्र ग्रन्थः इति अस्ति परन्तु ग्रन्थाः सम्यक् ग्रन्थाः सन्ति सम्यक् ग्रन्थालये ग्रन्थाः सन्ति. उषा भगिनी खलु, नाम लिखामि. अस्तु भगिनि, अग्रे उमाकृष्णन् भगिनि.
भगिनि अहं
सविता भगिनि पठतु.
ग्रन्थे नीतिविषयाः सन्ति.
ग्रन्थे नीतिविषयाः सन्ति सन्ति सम्यक्. इदानीं स्त्रीलिङ्गपदम्, आकारान्त स्त्रीलिङ्गपदं, पाठशाला वाटिका इति अस्ति. उमाकृष्णन् भगिनि क्षम्यतां.
पाठशालायां वाटिका अस्ति.
याम् इति भवति, पाठशालायां वाटिका अस्ति. अग्रे अहम् एतत् दर्शयामि. उषा भगिनि,
वाटिकायां लता सन्ति.
लता अस्ति
अस्ति
अथवा लताः सन्ति. लता अस्ति अथवा लताः सन्ति, सम्यक्. परमेश्वर महोदय, किम् अभवत्? अन्म्यूट् कर्तुं शक्नोति वा? बहिः गत्वा आगच्छतु महोदय. अम्बा वदति वा?
लतायां शाखाः सन्ति.
शाखाः सन्ति, सम्यक्. श्रीनिवास महोदय, पिपीलिका अस्ति, सम्यक्. अस्तु शारदा भगिनी, इदानीम् ईकारान्तपदं, नगरम् अपि अस्ति, नगरी अपि अस्ति.
आं भगिनि, नगर्यां विपणिः अस्ति.
नगर्यां विपणिः अस्ति, सम्यक्. नगरी, नगर्यां, नगर्यां विपणिः अस्ति, सम्यक्. केतकी भगिनि.
आं भगिनि, विपणीयां वीथि.
अस्तु, अत्र विपणीयां न, विपण्यां.
विपण्यां वीथि अस्ति. वाट् इस् वीथि?
वीथि मीन्स् मार्गः.
ओ, विपण्य से अगेन्, विपण्यां,
विपण्यां वीथि अस्ति.
वीथि, विपण्यां वीथि अस्ति.
वीथि इत्युक्ते मार्गः.
नो, विपणिः.
विपणिः इत्युक्ते आपणः. अस्तु सविता भगिनि,
वीथ्यां प्रदर्शिनी
अस्ति. अस्ति वीथ्यां प्रदर्शिनी अस्ति. उमाकृष्णन् भगिनि,
प्रदर्शिन्याम् अधिकारिणी सन्ति.
अस्ति अस्ति एव
अस्ति.
सो अत्र अधिकारिन् इति अस्ति मूलरूपम्.
अधिकारिन्, ओके.
सो वयम् अग्रे पठामः एतत् विषये. अधिकारिन् एव, अधिकारिन्. उदाहरणार्थं विद्यार्थिन्, योगिन्, स्वामिन्, एतादृशपदं नकारान्तपदं. सो अतः प्रथमाविभक्ति पुल्लिङ्गरूपम् अधिकारी इति भवति, कुशली एव इव. अत्रापि कुशलिन्. कुशलिन् इति रूपं पुल्लिङ्गे कुशली, अहं कुशली अस्मि. स्त्रीलिङ्गे कुशलिनी भवति, कुशलिनी स्त्रीलिङ्गे. पुल्लिङ्गे एवम् अस्ति. अत्र अपि अधिकारी पुल्लिङ्गे भवति, स्त्रीलिङ्गे अधिकारिणी इति भवति. समानरूपं कुशलिनी, अधिकारिणी, स्वामिनी, योगिनी, एतादृशपदानि. अस्तु परमेश्वर महोदय पुनरेकवारं बहिर्गत्वा आगच्छतु प्रायः सम्यक् भवति अस्तु अग्रे संस्कृत अध्ययने संस्कृताध्ययने मम महती आसक्तिः अस्ति सो अत्र आसक्तिः इति स्त्रीलिङ्गपदम् अतः महती पुल्लिङ्ग अस्ति चेत् महान् इति भवति महान् महान् सन्तोषः इति वयं पश्यामः खलु महान् सन्तोषः अथवा महत् नपुंसकलिङ्गे महत् इति भवति महत् अद्भुतम् इति महत् तकारान्तपदम् एतत् अस्तु महती आसक्तिः अस्ति आसक्तिः इत्युक्ते इच्छा अभिरुचिः इति वाक्ये आसक्तेः आधारः संस्कृत अध्ययनम् सो अत्र आसक्तिः इति वस्तु नास्ति खलु आसक्तिः इति मनसि एकः भावः एव एकः वस्तु इव परन्तु निश्चयेन वस्तु नास्ति उदाहरणार्थम् इच्छा इति साक्षात् वस्तु नास्ति एब्स्ट्राक्ट् इति वदामः तादृशवस्तु एव अस्ति तादृशवस्तु अस्ति चेत् तस्य नाम अस्ति विषयरूप आधारे अपि सप्तमी विभक्ति भवति आधारस्य पदस्य अपि सप्तमी विभक्तिरूपं भवति संस्कृत अध्ययनम् इति स्थलं नास्ति यथा इच्छा इति अस्ति चेत् वस्तु नास्ति संस्कृत अध्ययनं स्थलं नास्ति परन्तु एतस्मिन् वाक्ये अपि वयम् आसक्तिः इति वस्तु इव चिन्तयित्वा संस्कृत अध्ययनं स्थलम् इव चिन्तयित्वा आधारं सूचयामः सो अत्र नाम अस्ति विषयरूप आधारः एतस्य विषयः अस्ति विषयरूप आधारः उदाहरणार्थम् आवरणे दत्तानां शब्दानाम् उचितैः रूपैः रिक्तस्थलानि पूरयत उचितैः इत्युक्ते मोस्ट् अप्रोप्रियेट् उचितैः रूपैः अत्र विभक्तिका उचितैः रूपैः तृतीया बहुवचनं ओके सो अत्र अस्तु अत्र आसक्तिः इत्युक्ते इच्छा इव आसक्तिः इण्ट्रेस्ट् आसक्तिः संस्कृत अध्ययनम् अध्ययने मम महती आसक्तिः अस्ति ऐ हेव् अ लाट् आफ् इण्ट्रेस्ट् इति अर्थे अस्ति महती आसक्तिः इति अस्ति सो अत्र आसक्तिः इति वस्तु नास्ति उदाहरणार्थं लेखनी हस्ते अस्ति लेखनी इति साक्षात् वस्तु वयं द्रष्टुं शक्नुमः स्प्रष्टुं शक्नुमः तादृशवस्तु आसक्तिः नास्ति केवलं मनोभावः एव मनसि अस्ति द्रष्टुं न शक्नुमः तथा एव संस्कृत अध्ययनम् इति स्थलं नास्ति इत्युक्ते वदतु
हौ डु वी नो to use mahati as a strilingam in this sentence
asaktihi iti strilinga padam atah mahati
and if it is a pullinga
mahan it will become mahan
yeah but what about asakti
so asakti no mahan is based on something else for example, santoshah is a very common example.
Oh, so it won't be asaktihi then?
No, no.
So asaktihi is basically a strilingam.
Asaktihi is basically strilingam. And mahati, mahanar, visheshana.
So if a man is saying it, he won't say asaktihi. He'll say santoshah.
Ah, mahan santoshah. Saha mahan purushah.
But I'm trying to replace that word for pumlingam.
Ah, so the pullinga will be given. Mahan is based on whatever it is describing. It is only a visheshanam. So for visheshanam, the moola padam here is mahat.
Parantu bhagini asakti ikaran.
What is the equivalent masculine word for asakti?
Masculine word for asaktihi aham na janami. Another word is iccha iti. Mahati iccha asti.
Oh, okay, because I thought asaktihi is, I never thought of it as a gender.
Yeah, it is a strilinga gender.
But, okay.
Mahati asaktihi asti, mahati iccha asti, anya patit na mahan. अस्तु संस्कृत अध्ययने मम महान् सन्तोषः. इट् डिपेण्ड्स् आन् वाट् इट् इस् डिस्क्रैबिङ्ग्.
परन्तु भगिनि
क्वालिफैङ्ग् आसक्तिः.
इट् इस् क्वालिफैङ्ग् आसक्तिः. इट् इस् अ विशेषण
भगिनि. आसक्ति इकार, ऐ मीन् लास्ट् वर्ड् इस् इ. So it is ikaranta, right?
Ikaranta strilinga padam.
Ikaranta strilinga padam.
Bhagini, permission here.
Swagatam, Mahodaya. Swagatam.
I cannot hear you.
Now you can hear, Kalu? No?
Yes.
Okay. Uttama. Astu. So let's come back, okay? So atra asaktihi isti iti sakshat vastu nasti. Lekani iva vastu nasti. द्रष्टुं न शक्नुमः. एवमेव संस्कृत अध्ययनम् इति एकः अस्ति. तदपि स्थलं नास्ति. हस्तः उत्पीठिका एवं स्थलम् अपि नास्ति. परन्तु एतादृश सम्बन्धविषये वयं वक्तुम् इच्छामः चेत् तस्य नाम अस्ति विशेषरूप आधारः. एतत् अस्ति विशेषरूप अस्ति. विषयरूप आधारः. विषयरूप आधारं सूचयामः चेत् अपि सप्तमीविभक्तिरूपं भवति. एतदेव द्वितीय बिन्दु अस्ति. Asaktihi, mahati is an adjective. Asaktihi is a noun.
Okay. Thank you.
Adjectives will describe. Okay. Forget about
like mahati. Personality.
Okay. प्रश्नः वा अस्तु. सो अत्र वी केन् से संस्कृत अध्ययने मम आसक्तिः अस्ति. मम इच्छा अस्ति. संस्कृत अध्ययने मम इच्छा अस्ति. खादने मम इच्छा अस्ति. बहु ध्वनिः आगच्छति. कुत्र इदानीं नास्ति. अस्तु इति. सो अत्र एवमस्ति विषयरूप आधारः. अस्तु अग्रे प्रश्नः अस्ति वा? स्पष्टं वा?
आं भगिनि.
अस्तु अस्तु शारदा भगिनि.
आं भगिनि.
सो अत्र उदाहरणं पठतु प्रथमम्. अग्रे गच्छामः.
अस्तु भगिनि.
सः भवतः अनादरः मास्तु. तस्मिन् भवतः अनादरः मास्तु.
तस्मिन् भवतः अनादरः मास्तु. सः इन् हिम् तस्मिन् आधारः एवम् अस्ति. सो अत्र सः इति स्थाने अध्यापकः इति लिखामः. अध्यापकः. सो अत्र कथं भवति? अध्यापके भवतः अनादरः मास्तु. अनादरः इति पदं परिवर्तनं न अभवत्. अनादरः इति पदस्य परिवर्तनं न अभवत्. कुत्र परिवर्तनम् अभवत्? स्थाने. सः अथवा अध्यापकः विषयरूप आधारः कुत्र अस्ति अथवा कस्मिन् पदे अस्ति तस्य एव सप्तमीविभक्तिरूपं भवति. अध्यापके अनादरः मास्तु. अनादरः इत्युक्ते डिस्रेस्पेक्ट्. आदरः. अध्यापके आदरं सूचयतु. Then it becomes dvitiya vibhakti. Anadaraha mastu. So it depends on here. So this is astu kalo. Astu iti asti chet. Pratama vibhakti rupam. Adhyapake bhavattaha anadaraha. Parantu bhavan iti vadamaha chet. Katam parivatnam bhavati? Adhyapake bhavan?
Bhavati.
No. Bhavan? अनादरः इति पदम्. अध्यापके भवान् अनादरं मा सूचयतु. Okay, so it depends on everything, whether it changes or not. अस्तु वा? अस्तु. अस्तु, अग्रे भगिनि पठतु.
संस्कृते जनाः प्रीतिं प्रदर्शयन्ति.
प्रीतिः. प्रीतिः इति रूपं. प्रीतिः प्रथमाविभक्तिरूपं प्रीतिः. अत्र प्रीतिम् इति अस्ति. संस्कृते जनाः प्रीतिं प्रदर्शयति अथवा संस्कृते प्रीतिः भवतु. सो इफ् यु यूस् भवतु, इट् बिकम् प्रीतिः. प्रीतिः भवतु. सो वेन् वि से अस्तु भवतु, देन् इट् बिकम् प्रथमाविभक्ति अथवा वि केन् चेञ्ज् इट् टु द्वितीयाविभक्ति. संस्कृते जनाः प्रीतिं प्रदर्शयन्ति. अवगच्छन्ति वा सर्वे?
न, अहं न अवगच्छामि.
अस्तु, कुत्र महोदय?
जनाः प्रीतिः भवन्तु या भवतु?
भवतु, बिकास् यु आर् टाकिङ्ग् अबौट् प्रीतिः.
Okay, it's not the janas.
No.
Very good question.
So, atra, pradarshayanti. Ke pradarshayanti?
Janaha pradarshayanti.
Janaha pradarshayanti. Bhavato. Kim bhavato?
Preetihi bhavato.
Preetihi bhavato. Ataha eka vachana. उत्तम प्रश्न. वेरी गुड् क्वश्चन्. की क्वश्चन्. अस्तु, सो अग्रे पश्यामः. केतकि भगिनी विल् डु अ फ्यू मोर् उदाहरणम् अवगच्छति भगिनि. श्रीनिवास महोदय, शरीरस्य
अलङ्कारः मम अभिरुचिः नास्ति शरीरस्य अलङ्कारे मम अभिरुचिः नास्ति
अलङ्कारे मम अभिरुचिः नास्ति अभिरुचिः अपि साक्षात् वस्तु नास्ति परन्तु ओन्लि अ फीलिङ्ग् भावमेव परन्तु कुत्र अभिरुचिः अस्ति अभिरुचिः इति अर्थः अस्ति इच्छा अथवा आसक्तिः अपि अभिरुचिः रागद्वेष इति वदामः खलु राग एतत् अस्ति राग भावमेव कुत्र इच्छा नास्ति अलङ्कारे एतदपि साक्षात् स्थलं नास्ति परन्तु अत्र अपि सप्तमी विभक्ति आगच्छति विषयरूप आधारः एतस्य नाम अस्ति विषयरूप आधारः परमेश्वर महोदय
प्रश्नः कुत्र अस्ति चेत् आन्सर् सप्तमी
विभक्ति कुत्र अभिरुचिः नास्ति सप्तमी
मधुर
वदतु महोदय मधुरखाद्यं
मधुरखाद्यम् एतावती प्रीतिः किमर्थं मधुरखाद्ये एतावती प्रीतिः किमर्थं
मधुरखाद्ये मधुरखाद्ये एतावती प्रीतिः
किमर्थं
किमर्थं
So this word etavati I'm seeing it for the first time
so I was going to explain that so atra pritihi api strilinga padam abiruchihi strilinga padam ichha api strilinga padam sarvam strilinga padam pade padani eva so atra etavat we have seen tavat right tavat tavat vastutaya avyayam nasti यथा तथा अव्ययं यदा तदा अव्ययं यदि तर्हि अव्ययं परन्तु यथा ऐ मीन् यावत् तावत् अव्ययं नास्ति यथा वयं भवत् शब्दः अस्ति खलु भवत् शब्दः भवत् शब्दः अस्ति चेत् पुल्लिङ्गे किं भवति स्त्रीलिङ्गे किं भवति वदतु यु आर् वेरि वेरि क्लोस् स्त्रीलिङ्गे किं भवति पुल्लिङ्गे किं भवति
पुल्लिङ्गे भवतः
भवान् भवतः षष्टि विभक्ति भवान् इति प्रथमा विभक्तिरूपं स्त्रीलिङ्गे
भवति
भवति भवति भवत् शब्दः पुल्लिङ्गे भवान् स्त्रीलिङ्गे भवति एवमेव तावत् अथवा यावत् तावत् इति अस्ति चेत् पुल्लिङ्गे किं भवति स्त्रीलिङ्गे किं भवति सेम् महोदय इस् सेम् पाटर्न् भवत् इति अस्ति एकं पदं भवत् इति अस्ति वयं भवान् इति वदामः पुल्लिङ्गे भवान् स्त्रीलिङ्गे भवती इति भवति एवमेव तावत् लैक् महत् महत् इति अस्ति चेत् महान् पुल्लिङ्गे महान् महती स्त्रीलिङ्गे भवत् भवत् विल् बिकम् भवान् अण्ड् भवति पुल्लिङ्गे स्त्रीलिङ्गे महत् इति शब्दः महा महती इति भवति एवमेव तावत् इति शब्दः पुल्लिङ्गे किं भवति
तावती
सो अत्र तावति एतावती प्रीतिः किमर्थम् पुल्लिङ्गम् स्थावान् तावान् तावति सो अत्र एतावति ईदृशप्रीतिः एतावत् इत्युक्ते अधिकं प्रीतिः मास्तु कुत्र मास्तु प्रीतिः? खाद्ये. कीदृशखाद्ये? मधुरखाद्ये. मधुरखाद्ये एतावती प्रीतिः किमर्थम् इत्युक्ते मास्तु इति. यावत् यावान् यावती सम्यक्. अस्तु अग्रे अम्ब वक्तुमिच्छति वा?
देवः भक्तः कृपां प्रदर्शयति. देवः भक्ते
सम्यक् भक्ते
भक्ते कृपा प्रदर्शयति.
कृपां प्रदर्शयति.
कृपां प्रदर्शयति.
कृपां प्रदर्शयति. देवः कुत्र कृपां प्रदर्शयति? भक्ते. भक्ते कृपां प्रदर्शयति. विषयरूप आधारः अस्ति भक्तः इति. अस्तु अग्रे शारदा भगिनी. अम्ब म्यूट् करोतु अम्ब. अस्तु शारदा भगिनी.
चित्रलेखने बालकस्य अतीव आसक्तिः.
अतीव आसक्तिः अस्ति चित्रलेखने. सम्यक् चित्रलेखने अतीव आसक्तिः अस्ति. अतीव इति अव्ययं. सो अतः अतीवा इति न भवति. आसक्तिः अतीव आसक्तिः अस्ति.
क्षम्यतां भगिनि. रिगार्डिङ्ग् दिस् एतावती यावत्तावत् डस् हाव् विभक्ति?
निश्चयेन बिकास् इट्स् अ नामपदं जस्ट् लैक् हौ भवान् अण्ड् भवती अण्डर्गोस् या इट् विल् गो अण्डर्गो यस्
धन्यवादः.
निश्चयेन केतकि भगिनि अग्रे एतत् पठति वा अवगच्छति वा प्रथमं विषयरूप आधारः? अस्तु अस्तु. स्निह्यति
स्निहति
स्निह्यति
स्निह्यति विश्वसिति इत्येतयोः धात्वोः प्रयोगः यत्र भवति तत्र स्नेहस्य विश्वासस्य च यत् पात्रं तस्य सप्तमी विभक्ति भवति.
अस्तु. सो अत्र अपि समानमेव. विषयरूप आधारः कुत्र अस्ति? तत्र. उदाहरणार्थं वयं पूर्वं किं किं पठितवन्तः? प्रीतिः. प्रीतिः आसक्तिः अपि च किम्
आसक्ति एण्ड् अतीव कृपा.
कृपा पदानि. कृपा अन्यत् किमपि अस्ति. कृपा इच्छा प्रीतिः आसक्तिः. सो अत्र स्नेहः स्नेहं विश्वासम् अपि विश्वासं विश्वसिति इति क्रियापदं भवति. स्नेहः स्नेहस्य विश्वासस्य च यत् पात्रं तस्य सप्तमी विभक्ति भवति. यदा
whatever have a sneha or whatever have a aadhar that according to that it change.
Like you know on whom are we having the sneha or the vishwasa or the aadhar preeti aasakti kripa iccha all that on tatra api saptami vibhakti roopam bhavati. Astu udaharanam patatu.
माता पुत्रे विशेषतः स्निह्यति. कुत्र स्निह्यति? पुत्रे.
अथवा अत्र माता पुत्रे विशेषतः स्निह्यति अथवा स्नेहं प्रदर्शयति. स्नेहं प्रदर्शयति अपि वक्तुं शक्नुमः, स्निह्यति अपि वक्तुं शक्नुमः.
स्नेहं तु द्वितीयविभक्ति आगच्छति.
स्नेहं द्वितीयविभक्ति आगच्छति. अथवा विशेषस्नेहः इति अपि वक्तुं शक्नुमः. विशेषस्नेहः भवतु मास्तु इत्युक्ते दुर्जने, दुर्जने विशेषस्नेहः मास्तु, स्नेहः मास्तु, दुर्जने स्नेहः मास्तु. स्वतः स्नेहः भवति, स्नेहं भवति, स्निह्यति अपि भवति. परिवर्तनं करणीयम्. अस्तु,
कुछु अवगतम्.
अस्तु अस्तु, अभ्यास अभ्यासम् इति पठतु, प्रथमं करोतु. आवरणे
आवरणे दत्तानां शब्दानाम् उचितैः रूपैः रिक्तस्थलानि पूरयत. फिलिङ्ग् द ब्लेङ्क्स् योग्य योग्यशब्द पूरयत.
सम्यक्.
सः वचकः,
वञ्चकः, वञ्चकः,
वञ्चकः
इत्युक्ते दुर्जनः.
सः वञ्चकः अतः सः
स्वत्र तस्मिन्
तस्मिन्
अतः वञ्चकः इति एव लिखतु. अतः वञ्चकः
अतः वञ्चके मा विश्वसितु.
मा विश्वसितु अपि स्वत्र विश्वसिति, सः विश्वसिति, परन्तु लोट्लकार भवान् मा विश्वसितु इति.
विश्वसितु अस्तु. विश्वसितु इस् अ लोट्लकार.
लोट्लकार पठतु लिखतु विश्वसितु इति. अत्र मा वञ्चके मा विश्वसितु.
मा विश्वसितु.
अस्तु, सविता भगिनि.
आं भगिनि, ये जनाः स्नेहं प्रदर्शयन्ति ते जनाः स्निह्यन्ति. ये जनाः जनेषु
सम्यक् ये जनेषु जनेषु स्नेहं प्रदर्शयन्ति
तेषु जनाः
तेषु जनाः स्निह्यन्ति. सम्यक् खलु. ये जनाः अन्येषु स्निह्यन्ति, अन्ये अपि तेषु स्निह्यन्ति. ये
अत्र भगिनि जनाः आधारः अस्ति न?
जनाः ये जनेषु स्नेहं प्रदर्शयन्ति. ते ते इत्युक्ते ये ये जनेषु स्नेहं प्रदर्शयन्ति तेषु जनाः अपि स्निह्यन्ति.
तेषु सप्तमी.
तो अर्थं जानाति वा वाक्यस्य अर्थम्?
Those who show affection to the people, they are liked by the people.
They are liked by the people. The people also show affection. Samya. Snihyati, sneham pradarshayanti. See how many ways we can show. Snihyatu, sneham pradarshayanti, snihyanti, sneham, snehaha. Samya. Astu. Uma Krishnan Bhagini.
रावणः स्वशक्तिः अधिकं विश्वासितवान्. स्वशक्तिः स्त्रीलिङ्गपदं वा? रावणः स्वशक्त्यां
सम्यक् भगिनि
अधिकं विश्वासितवान्. लाट् आफ् कान्फिडेन्स्.
सम्यक्. इन् हिस् ओन् शक्ति, स्वशक्त्या अधिकं विश्वसितवान्. सम्यक्. विश्वासं कृतवान् अपि वक्तुं शक्नुमः. विश्वासं कृतवान् स्वशक्त्याम् अधिकं विश्वासं कृत. अत्रापि विशेष आधारः, सारि विषय, ऐ कीप् सेयिङ्ग् विशेष, विषय आधारः. अस्तु अग्रे उषा, उषा भगिनि.
यानं विश्वस्य गतः अहं मूर्खः सञ्जातः. सञ्जातः
सञ्जातः एव
याने
याने
याने विश्वस्य गतः अहं मूर्खः सञ्जातः.
मूर्खः सञ्जातः. या लिटल् बिट् काम्प्लिकेटेड्. सो अत्र गतः इति त प्रत्यय. सो अत्र गतवान् इति अपि वयं वयं लेखितुं शक्नुमः गतवान्. सो वी केन् मेक् टू सेण्टेन्सेस्. अहं याने विश्वासं कृत्य गतवान् अतः अहं मूर्खः सञ्जातः. सञ्जातः इत्युक्ते ऐ बिकेम् अ फूल् लैक् दट्. मूर्खः सञ्जातः याने विश्वस्य अहम्.
भगिनी प्रश्नः अस्ति.
एकनिमिषं भगिनी. सो अत्र अहम् अहं याने विश्वासं कृतवान् अथवा अहं याने विश्वसिमि. विश्वसितु, विश्वसिति, विश्वसिमि. अहं याने विश्वसिमि अतः अहं मूर्खः. सो वि कन् विश्वसिमि मीन्स् इस् द प्रेसेण्ट् टेन्स्. विश्वसितु, विश्वसिति, विश्वसिमि. लैक् रोदिमि, विश्वसिमि. रोदिति, रोदितु, रोदिमि, विश्वसिमि. अहं याने विश्वसिमि अतः अहं मूर्खः.
ऐ ट्रस्टेड्
बिकास् ऐ ट्रस्टेड् इन् द इन् द यानम् ऐ एम् अ फूल्. ऐ बिकेम् अ फूल् इति अर्थे. केतकि भगिनी पृच्छतु.
Bhagini, how you say that we can use the same word two way? How can we know that when we have a lot of practice then only?
For example, atra vishvasya, I never mentioned vishvasya, kalo?
So, but how can we have a lot of practice when we finish this chapter? Then that's it, right? How can we have?
Yeah, so that's why we have to read a lot of stories and other books, Bhagini. So, Angila Bhashayam, te vadanti kalu, Patashalayam vadanti, reading assignment iti. So, every day the kids have to have a reading assignment.
Okay.
So, like that we have to keep reading and we'll be able to pick up, Bhagini. सो पठित्वा पठित्वा एव आगच्छति. कथा कथां पठामः चेत् सम्यक् भवति. कथां शृणुमः चेत् अपि सम्यक् भवति.
परन्तु देर् इस् नो टीचर्. हौ केन्
वीड् इट् अण्ड् युल् बि एबल् टु अण्डर्स्टाण्ड् भगिनि. नो चेत् डिक्षनरि अस्ति खलु, कोशः अस्ति. कोशं पश्यतु, अर्थम् अवगच्छतु.
ओके भगिनि,
अस्तु. धन्यवादः. अन्य कोऽपि
रीड् अ बुक् लैक् अ 5 इयर् ओल्ड्?
निश्चयेन. सो ऐ थिंक वी शुड रीड् अ स्टोरी इन् एव्री क्लास्
लैक् 5 इयर् ओल्ड्. डू ऑल सॉर्ट्स ऑफ मिस्टेक्स एंड
दैट वुड बी वंडरफुल भगिनि.
निश्चयेन, निश्चयेन.
हाउ लॉन्ग विल इट टेक? 5 मिनट्स?
नो, एट लीस्ट 15 मिनट्स. I don't know, it depends on the story. So we will start by reading a story today.
And Bhagini, only one paragraph or a four line, but then if you are there you can pick up right away and you can ask us.
Nischayana.
If we sit and we read, we cannot pick up that.
Astu.
Where can you find the stories, Bhagini?
Stories are everywhere, Bhagini.
Everywhere.
Everywhere. Everywhere.
But our level.
Yeah, okay. So, I'll try to send you stories.
And we will practice that, and then in the class, we will say one or two line only, not whole story.
Aam. Okay.
Dhanyavad.
Dhanyavad. Astu. Anya kopi asti va? Yasya nama hamna uktavati? Astu. Srinivasam hodi. Agre. Bhavataha.
Sagari Bhagini is not here.
No. अस्तु महोदय वदतु.
विश्वास्य अहम् अग्रे गतवान् भवतः वचनेषु
सम्यक् वचनेषु
भवतः वचनेषु विश्वास्य अहम् अग्रे गतवान्
वचनेषु विश्वस्य सो अत्र अन्य रूपम् अस्ति विश्व विश्वः विश्वस्य विश्वं विश्वसिति ट्रस्टिङ्ग् विश्वस्य सो दिस् इस् अ ल्यबन्तपदम् ल्यबन्तपदम् विश्वासं कृत्वा इति भवतः वचनेषु विश्वासं कृत्वा अहम् अग्रे गतवान् अत्र अपि याने विश्वासं कृत्वा अहं गतवान् अहं मूर्खः सञ्जातः मूर्खः अभवत् अभवम् इति
भगिनि यु पिक् अप् and you tell us we don't remember those things.
No, that's okay.
Bhagini, can you repeat that sentence again the way you said it?
Etatva etatva
bhavatah vachanani
bhavatah vachaneshu aham vishwasam kritva agre gatavan.
Okay, so we added kritva
because I said vishwasam
kritva
athava vishvasya.
So you said which is the labantam?
Vishvasya is labantam. It looks like a shashti vibhakti, but it is a labanta padam. Vishvasya aham agre gatavan.
What is the shashti vibhakti on that then?
There's no shashti here.
Oh, okay.
Srinivasa Mahodaya, you said something. Kimapi uktavan va?
No, I said both are Vishvasya only.
Vishvasya.
In fact, I was reading it as Vishvasya because the Vishvasya is a word which stuck into me, not reading it properly.
Correct. Samyak. Correct. Vishvasya. Vishvasya itikte Vishvasam kritva aham agre gatavan. Vishvasya aham agre gatavan.
If we have vachaneshu, then what word will come?
Vachaneshu is only correct, Bhagini. Vachaneshu.
Vachaneshu vishvasya aham agre gatavan.
Vachaneshu vishvasya aham agre gatavan. Bhavatah vachane aham vishvasam karomi. Mama vishvasah asti. भवतः वचने मम विश्वासः अस्ति बहुवचनं भवतः वचनेषु मम विश्वासः अस्ति ऐ हाव् फेत् इन् योर् वर्ड्स्
सो इन्स्टेड् आफ् अहं वी केन् यूस् मम
सो वेन् वि से विश्वासः इट् चेञ्जस् टु मम विश्वासः
अस्तु भगिनि
आर् वि केन् से वदतु
only akarandam it become yeshu and all the other things it become the same moola roopam and then shu only
shu only for akarant streelinga it will become su
yeah bahuvachan
in akaranda pullingam it become yeshu
and namaskaramam yeshu samyak yeshu vachaneshu
bagini please share that the small bit notice that you sent for us no only the cut portion of only Satna Vibhakti.
Yeah, I will send this to you. Huh?
Yes.
Yeah, I will send this to you now also, okay? A connection.
Just put in WhatsApp.
Yeah. Yes.
Because this is super cute and useful. Quick reference.
Oh, good, Mahadeya. I'm glad. Okay, astu. Preshitavati. So, atra. Agre, Amba, vadati va? Dasharataha.
दशरथः पुत्राः अधिकं स्निह्यति स्म दशरथः पुत्रेषु
सम्यक् पुत्रेषु अधिकं
स्निह्यति स्म
उत्तमं दशरथः पुत्रेषु अधिकं स्निह्यति
स्म
दशरथः पुत्रेषु अधिकं स्नेहं प्रदर्शयति स्नेहं प्रदर्शयति दशरथस्य पुत्रेषु दशरथस्य अधिकः स्नेहः अस्ति सो लैक् दट् डिफ्रेण्ट् डिफ्रेण्ट् वेस् वी केन् से धन्यवादः अम्ब परमेश्वर महोदय आम् आम् परमेश्वर
महोदय
स्निह्यति प्राप्नोति सम्यक् यः दुर्जनेषु स्निह्यति सः अवश्यं हानिं प्राप्नोति यः दुर्जनेषु स्नेहं प्रदर्शयति सः अवश्यं हानिं प्राप्नोति सम्यक् दुर्जनेषु अस्तु अग्रे शारदा भगिनि
राजनीतिजनाः राजनीतिजनेषु भवन्तः कदापि मा विश्वसन्तु
मा विश्वसन्तु किमर्थं न इति अहं न अवगच्छामि
पोलिटिशियन्स् न भगिनि
राजनीतिजनाः मीन्स् पोलिटिशियन्स् वा अस्तु आम् आं राजनीतिजनाः ऐ थाट् जड्ज् इव नीति धन्यवादः राजनीतिजनेषु भवन्तः कदापि मा विश्वसन्तु सम्यक् धन्यवादः अस्तु सो अन्य किमपि अस्ति वा प्रश्नाः अस्तु अग्रे केतकि भगिनि अस्तु
इन्द्रजित् माया सीतां केशेषु गृहीतवान् इत्यस्मिन् वाक्ये ग्रहणक्रियायाः कर्मसीता कर्मभूतायाः सीतायाः अङ्गे केशे इन्द्रजित् गृहीतवान् एवं कर्मणः यस्मिन् अङ्गे ग्रहणं ताडनं प्रहरणम् इत्यादिकं भवति तस्य अङ्गस्य सप्तमी भवति
सो अत्र इन्द्रजित् मायसीतां केशेषु गृहीतवान् कुत्र गृहीतवान् सो अत्र ग्रहणक्रिया अस्ति चेत् ग्रहणक्रिया अस्ति चेत् कस्मिन् अङ्गे ग्रहणम् अथवा ताडनं प्रहरणम् इत्यादिकं भवति तस्य अङ्गस्य सप्तमी भवति. अतः कर्तृपदं कर्मपदं कर्मणः सो एवमेवम् अस्ति. अङ्गं क्रिया च क्रमेण निर्दिष्टानि सन्ति, तेषां साहाय्येन पूर्णानि वाक्यानि रचयत. उदाहरणं पठतु भगिनि. उदाहरणं
सः अहं वक्षस्थलं प्रहृतवान्. सः मां वक्षस्थले प्रहृतवान्. सो विच् प्रहर वेर् इट् हेपन् देट् बिकम् सप्तमी.
सप्तमी. सो अत्र मम इति न, मम वक्षस्थले इति न, माम्.
वाट् इस् द डिफ्रेन्स्?
द डिफ्रेन्स् इस् अत्र प्रथमं सः मां प्रकृतवान् इति वदतु. सः मां प्रकृतवान्.
Then
it becomes vakshastale.
We can use the hastam. Haste.
Grihitavan. Aditavan.
Avagatam.
Astu. Agre karotu bhagini.
Arakshakah. चोरः कण्ठः गृहीतवान्. आरक्षकः चोरः
चोरं खलु अहं बिके मां
चोरं कण्ठे गृहीतवान्.
सम्यक्. आरक्षकः तथा एव भवति. चोरः द्वितीयविभक्तिरूपं स्वीकरोति. कण्ठः सप्तमी विभक्ति भवति. गृहीतवान्
क्रियापदं
परिवर्तनं न भवति.
वाय् चोरं?
सो अतः एव अहम् उक्तवती प्रथमम् एतत् करोतु. आरक्षकः कं गृहीतवान्? प्रथमं गृहीतवान्. कः गृहीतवान्?
कं गृहीतवान् देन् चोरं
गृहीतवान्. चोरं कुत्र गृहीतवान्? हस्ते वा कण्ठे वा कुत्र गृहीतवान्? कण्ठे गृहीतवान्.
सुखम् एन् कुत्र? प्रश्न आस्किङ्ग् एण्ड् देन् इट् विल् आन्सर्. ओके,
धन्यवादः.
अगेन् सप्तककार रिमैण्डर्.
निश्चयेन. सविता भगिनि.
राक्षसी सीता केशाः गृहीतवती. राक्षसी सीतां केशेषु गृहीतवती.
सम्यक्. सीतां केशेषु
गृहीतवती.
सम्यक्. केशेषु गृहीतवती. उमाकृष्णन् भगिनि.
बालकः अन्यबालकः कोलः ताडितवान्. बालकः
अन्यबालकं कपोले ताडितवान्. सम्यक्.
कपोले स्टीक्
चिक् कपोले ताडितवान्. अस्तु, अग्रे उमाकृष्णन्. इदानीं
अन्य बालकस्य यूस्
न
इफ् यूस् देन् न रैट्. ओके,
दिस् इस् हौ इट् शुड् बि डन्. तावदेव. अस्तु, उषा भगिनि.
बालकाः अन्यबालकः
तत् अभवत्. अग्रिमं करोतु.
ओ माता पुत्रः प्रीत्या मस्तकं ताडितवती. माता पुत्र प्रीत्या माता प्रवर्तनं न
न न परिवर्तनं न भवति.
परिवर्तनं नास्ति. पुत्रः पुत्रं
पुत्रं
प्रीत्यासु
प्रीत्या विल् नाट् चेञ्ज् प्रीत्या एव.
But it's in brackets, no? I thought that's why.
No, just to show, you know, it wasn't in anger. Kupena na taditavati. Priya taditavati.
Mata putram mastakam taditavati. Mata putraha putram मस्तके
सम्यक् भगिनी मस्तके ताडितवती. अस्तु श्रीनिवास महोदय.
मस्तकं ताडितवती
न न मस्तके ताडितवती. सो अत्र मस्तकं नास्ति चेदपि सम्यक् एव. माता पुत्रं ताडितवती.
कुत्र ताडितवती? विल् बि मस्तकं
मस्तके ताडितवती. मस्तके.
सो द्वितीय विभक्ति विल् नाट् गो देर्.
नो, इट् विल् नाट् गो देर्. परन्तु अत्र द्वितीय विभक्ति नास्ति चेत् अपि सम्यक् एव. माता मस्तके ताडितवती.
बट् हूस् हेड्? नो,
हूस् हेड्? सो देन् इट् विल् बिकम् पुत्रं पुस्तक पुत्रस्य मस्तके ताडितवती इति सम्यक् न भवति. पुत्रं मस्तके
ताडितवती.
सो अतः एतत् प्रथमं करोतु. पुत्रं ताडितवती, पुत्रं मस्तके ताडितवती, पुत्रं कुत्र ताडितवती, पुत्रं मस्तके ताडितवती. सो अत्र कस्य इति प्रश्नः मास्तु. कस्य मस्तके ताडितवती इति मास्तु. प्रथमं द्वितीय विभक्ति करोतु, अनन्तरं सप्तमि विभक्ति. श्रीनिवास महोदय.
मल्लः अन्य मल्लः उदरं ताडितवान्. मल्लः अन्य मल्लम् उदरे ताडितवान्.
सम्यक्. अन्य मल्लम् उदरे ताडितवान्. सम्यक्. अस्तु अम्ब अन्तिम.
योधः शत्रुः कण्डः प्रहृतवान्. योधः शत्रुं
सम्यक्
कण्डे प्रहृतवान्.
कण्ठे प्रहृतवान्. सम्यक्. कण्ठे प्रहृतवान्. अस्तु अवगच्छन्ति वा? इतोपि किं पठितवन्तः अद्य? इत्युक्ते सप्तमी विभक्ति आधारं सूचयति. कुत्र इति प्रश्नस्य उत्तरं. हस्ते, गृहे, पाठशालायाम् इति.
प्रहृतवान् इति
सन्ध्या भगिनी स्वागतम्. इदानीमेव पश्यामि
भगिनि.
प्रहृतवान् इत्युक्ते ताडितवान् इति. प्रहरणम् इत्युक्ते पादप्रहरणं. पादेन प्रहरणं कृतवान्. किक्किङ्ग्.
किक्किङ्ग्. ओके
भगिनि. मल्लः इस् रेस्लर् भगिनि.
रेस्लर् मल्लयुद्धजनाः. सो अत्र आधारः साक्षात् आधारः वस्तु अस्ति चेत् वस्तु अस्ति चेत् आधारः भवति. आधारस्य सप्तमी विभक्ति भवति. परन्तु मनोवस्तु अस्ति चेत् साक्षात् वस्तु न. इच्छा, आसक्तिः, अपि च प्रीति, अभिरुचिः एतादृश मनोभावः अस्ति चेत् कुत्र वयं स्थापयामः? लैक् फेत् इन् दट् पर्सन्, इण्ट्रेस्ट् इन् लैक् तादृशवस्तु अस्ति चेत् अपि सप्तमी विभक्तिरूपं भवति. अन्यत् एकमस्ति स्नेहः विश्वासं विश्वासः स्नेहः स्नेहस्य विश्वासस्य आधारः कुत्र अस्ति तत्र अपि सप्तमी विभक्तिरूपं भवति स्निह्यति विश्वसिति एतादृशक्रियापदम् आगच्छति चेत् तत्र अपि सप्तमी विभक्तिरूपं भवति अन्यत् एकम् अस्ति ग्रहणक्रिया अथवा ताडनक्रिया अस्ति चेत् कुत्र ताडयामः कुत्र गृह्णामः गृणीमः तत्र अपि सप्तमी विभक्तिरूपं भवति एतदेव इदानीं पठितवन्तः अद्य प्रश्नः अस्ति वा
न
अस्तु सो अग्रे एतत् पश्यन्तु इदानीं कथां पश्यामः एकनिमिषम् सुगन्धः इति पुस्तके अस्ति अस्तु सन्ध्या भगिनी इदानीमेव भवत्याः नाम अहं दृष्टवती पठितुमिच्छति वा श्रोतुमेव इच्छति वा भगिनी अस्तु श्रीनिवासमहोदय
अस्ति दुङ्गभद्रायाः तीरे कश्चन ग्रामः
you can do the first paragraph and then try to say in your own words
अस्तु अस्ति दुङ्गभद्रायाः तीरे कश्चन ग्रामः तत्र मायणः नाम कश्चित् गृहस्थः निवसति स्म मायणस्य त्रयः पुत्राः माधवः सायणः भोगनाथः च इति त्रय अपि तेजस्विनः ग्रामस्य समीपे कश्चन आश्रमः आसीत् ते तत्र विद्याभ्यासं कुर्वन्ति स्म माधवः अभ्यासे क्रीडादिषु च अग्रगण्यः गुरूणां प्रियतमः
सो अत्र वाक्यद्वयम् एव करोतु तुङ्गभद्रायाः तीरे
there was a village in the banks of Tungabhadra.
अस्तु महोदय संस्कृतेन वक्तुं प्रयत्नं करोति वा न वा
दुङ्गभद्रा नदीतीरे एकः ग्रामः आसीत्
सम्यक्
एकः ग्रामः आसीत्
तद्
ग्रामे मायणः नाम एकः पुरुषः वसति
सम्यक् अस्तु अग्रे अम्ब मायणस्य त्रयः पुत्राः माधवः सायणः भोगनाथः च
मायणस्य त्रयः पुत्राः सन्ति
सम्यक्
तेषां नामः माधवः सायणः भोगनाथः इति
सम्यक्
तेजस्वी अस्ति
अस्तु
सन्धि
त्रयः
अपि तेजस्वी सन्धि ग्रामस्य समीपे कश्चन आश्रमः आसीत्
सम्यक्
ते तत्र विद्याभ्यासं कुर्वन्ति स्म,
ते आश्रमं गच्छन्ति,
आश्रमे पाठं पठति,
पठन्ति स्म, उत्तमं, पठन्ति स्म, अस्तु.
माधवः अभ्यासे क्रीडादिषु च अग्रण्य अस्ति.
अग्रगण्यः इत्युक्ते ग्रहणं सम्यक् भवति तस्य अग्रे. सो
फोर्मोस्ट्,
अन्येषु सः एव प्रथमः इति, अग्रे अग्रे गच्छति सः. सः गुरुणा प्रियतमः इति,
प्रियतमशिष्यः.
धन्यवादः अम्ब, धन्यवादः. सो अत्र गुरुः माधवे प्रियं प्रदर्शयति, विशेषप्रियं प्रदर्शयति. सम्यक्, धन्यवादः. परमेश्वर महोदय,
उषत्कालः माधवः सह सहाध्यायिः सह नदी.
एकनिमिषं महोदय, एकनिमिषं.
नद्यां तरति दूरे एकस्याः स्त्रियाः चीत्कार सुतः. माधवः किम् इदम् इति चिन्तयत् परितः दृष्टवान्. अपि चीत्कारः माधवः सद्यः एवं माधवः सद्यः एव तीरम् आगतवान्. चीत्कारम् अनुसृत्य धावितवान् च.
धावितवान् च, अस्तु. प्रथम उषःकालः इत्युक्ते किम्? उषःकालः इत्युक्ते प्रातःकालः.
ओ सोरि, प्रातःकाले.
प्रातःकालः
स्थानार्थं माधव सहामः सहाध्याय मतलब् माधवः
माधवस्य माधवेन सह ये पठन्ति तेन सह, सह अध्यायिभिः सह, माधवेन सह कः के माधवेन सह ये पठन्ति तेन सह तैः सह तैः सह अत्र तैः सह बहुवचनम् अस्ति खलु. तैः सह स्नानार्थं कुत्र गतवान्? आगतवान्. अस्तु, अग्रे.
सः नद्यां तरति स्म.
नद्यां तरति स्म, अस्तु. अग्रे शारदा भगिनी. तरति स्म, अत्र किमपि वक्तुं न शक्नुमः. अस्तु, तदानीं किं श्रुतवान्? श्रुतः अथवा श्रुतवान्?
कीर्तनं श्रुतवान्. स्त्रियाः
कीर्तनं श्रुतवान्. अस्तु, सम्यक्.
माधवः क्याहुवाच् इति चिन्तयतु.
किम् अभवत् इति,
किम् अभवत् इति चिन्तयि
परितः दृष्टवान् इत्युक्ते वामतः, पृष्ठतः, पुरतः, दक्षिणतः, सर्वत्र दृष्टवान्. परितः इत्युक्ते सर्वेषु दिक्षु, आल् ओवर्. परितः सर्वत्र दृष्टवान्.
पुनः अपि चीत्कारं
श्रुतवान्.
माधवः सद्यः एवं तीरम् आगतवान्.
सद्यः इत्युक्ते झटिति, तत् झटिति इत्युक्ते क्षणे एव तस्मिन् क्षणे एव आगतवान् नदीतः नदीतः कुत्र आगतवान् तीरम् आगतवान् तीरम्
केतुकारम् अनुसृत्य अनुसृत्य धावितवान् च
इत्युक्ते चीत्कारं कुतः आगच्छति इति निर्णयं कृत्वा अनुसृत्य अनुसृत्य मीन्स् फालोड् द साङ्ग् चीत्कारम् अनुसृत्य धावितवान् चीत्कारं कस्मिन् दिशि अस्ति इति ज्ञात्वा धावितवान् चीत्कारं प्रति धावितवान् अस्तु अग्रे शारदा भगिनी
राजमार्गे एका शिबिका शिबिकां परितः यवनसैनिकाः ते शिबिकावाहकान् भीष्यन्ति शिबिकायाम् एका तरुणी अस्ति तां तरुणीम् अपहर्तुं ते सैनिकाः प्रयत्नं कुर्वन्ति सा तरुणी भयात् क्रन्दनं करोति
अस्तु भगिनि
मार्गे एका शिबिका पालङ्क्विन् भगिनि
आम् आम् पालङ्क्विन् एव
शिबिकां दक्षिणतः वामतः यवनसैनिकाः अभवन्
शिबिका मीन्
शिबिका इस् पालङ्क्विन्
पालङ्क्विन् ओके
वदतु
ते शिबिकावाहकान् भीष्यन्ति भगिनि भीष्यन्ति इति
भीषयन्ति मीन्स् सराौण्डेड् इति चिन्तयामि
ते शिबिका यः नयति तस्य परितः यवनसैनिकाः भीष्यन्ति शिबिकायाम् एका तरुणी एका महिला अस्ति शिबिकस्य अन्तः इन्सैड् इट्स् सो डिफिकल्ट्
बहु डिफिकल्ट् एव शिबिकायाम् एका तरुणी अस्ति सा अन्तः अस्ति सा तरुणीम् अपहर्तुम् अपहर्तुम् इत्युक्ते किम् अपहरणं रावणः सीताम् अपहृतवान् अपहर्तुं ते सैनिकाः प्रयत्नं कुर्वन्ति ते सैनिकाः तरुणीम् अपहर्तुं प्रयत्नं कुर्वन्ति
भयेन महिला क्रन्दति
क्रन्दति क्रन्दनं करोति चीत्कारं करोति सम्यक् एव भगिनि अस्तु सम्यक् एव उक्तवती भवती अस्तु
वाट् इस् चीत्कारं मीन्
शौटिङ्ग् क्रन्दनं चीत्कारं
सेम् एस् क्रन्दनं
पर्यायपदं पर्यायपदम् अस्तु केतकि भगिनि
धन्यवादः भगिनि ऐ लैक् इट्
उत्तम माधवः
एतत् सर्वं दृष्टवान् माधवस्य महान् क्रोधः आगतः यवनाः भारतदेशे स्त्रियः अपमानं कुर्वन्ति किम् यवनाम् एतादृशम् औद्यत्यं किम् इति आलोचितवान् सः
आलोचितवान् सः सो अत्र नूतन पदं किम्
औद्यत्यं
सो औद्यत्यं न जानीमः चेत् कोशं पश्यतु औद्यत्यम्
ओके
अस्तु माधवः एतत् सर्वं दृष्टवान् वदतु इट् कुड् बि सो अत्र सो दिस् इस् हौ वि डु वि डोण्ट् नो वि लुक् इट् अप् अस्तु वदतु
माधवः सर्वं दृष्टवान् एतत् माधवः एतत् सर्वं दृष्टवान् तस्य महान् क्रोधः आगतः
महान् क्रोधः महत् न महती क्रोधः पुल्लिङ्गपदं सो दीस् आर् द थिङ्ग्स् वि पिक् अप् स्टोरीस्
यवनाः भारतदेशे स्त्रियाः अपमानं कुर्वन्ति किम् किं यवनाः भारतदेशे देशस्य स्त्रियाः स्त्रियासु अपमानं कुर्वन्ति
किमर्थं कुर्वन्ति इति
किमर्थं कुर्वन्ति यवनानाम् एतादृशम् औद्धत्यं किम् किम् औदत्य भवति यवनां देशात् यवनां सैनिकाम् औदत्य किं भवति
किमर्थम् एतत् औदत्यम् इत्युक्ते अरगन्स् इति किमर्थम् औदित्यं प्रदर्शयन्ति
किमर्थम् एतादृशम् औदत्यं दर्शति
दर्शयति सम्यक्
दर्शयति इति आलोचितवान् सः
आलोचितवान्
चिन्तितवान् सः माधवः
चिन्तितवान् अस्तु सविता भगिनी
धन्यवादः भगिनी गुड्
उत्तमं भगिनि अग्रे माधवः
निरायुधः आसीत् सः तत् न गणितवान् सद्यः एव आक्रमणं कृतवान् यवनानाम् उपरि हस्तप्रहारं कृतवान् स्त्रियाः विमोचनं साधितवान् च माधवस्य हस्ते कोऽपि आयुधं न आसीत्
सम्यक् निरायुधः सम्यक्
सः तत् न गणितवान् वाट् डस् दिस् मीन् भगिनि
गणितवान् मीन्स् हि डिडन्ट् कौण्ट् आन् इट् हि डिडन्ट् केर् अबौट् इट् इति अर्थे सः तस्मिन् विषये न
चिन्तितवान्
सम्यक्
सद्यः एव आक्रमणं माधवः आक्रमणं कृतवान् सः सैनिकानाम् उपरि हस्तप्रहारणं कृतवान् अपि सा तरुण्या विमोचनं साधितवान्
तरुण्याः विमोचनं साधितवान् सम्यक् विमोचितवान् अस्तु सम्यक् उमाकृष्णन् भगिनि
एतत् आक्रमणं यवनानाम् अनिरीक्षितम् आसीत् ते अपि क्रुद्धाः सञ्जाताः ब्राह्मणबालकं दृष्ट्वा तेषां कोपः प्रवृद्धः ते सर्वे मिलित्वा बालकस्य उपरि आक्रमणं कृतवन्तः
एतत् आक्रमणं
रमणम् यवनानाम् अनिरीक्षितम्
अनएक्स्पेक्टेड् समथिङ्ग् सो ईक्षितं मीन्स् टु सी अनिरीक्षितं दे डिन्ट् वाण्ट् टु एक्सेप्ट् इट् सम्यक् anirikshitam asit, or they have not seen anything like this. Anirikshitam asit. Te api क्रुद्धः इत्युक्ते कोपः
कोपः ते अपि कोप आसीत्
सम्यक्
ब्राह्मणबालकः दृष्ट्वा तेषां कोपः प्रवृद्ध ब्राह्मणबालकः दृष्ट्वा तेषां कोपः प्रवृद्धः इट् इन्क्रीस्ड्
इन्क्रीस्ड् अधिकम् अभवत् सम्यक्
बालकस्य उपरि आक्रमणं कृतवन्तः
मिलित्वा कृतवन्तः सो अस्तु अद्य समयः अभवत् सो अतः अहम् एतां कथां प्रेषयामि अग्रे वयं पठामः अग्रिमवर्गे पठामः सो एवमेव अस्ति इतोपि
विच् बुक् भगिनि फ्रोम् विच् बुक्
सुगन्धः इति पुस्तकात् अस्तु माधवः तु धीरः समीपे एकः योधः आसीत् तस्य हस्तात् माधवः खड्गम् आकृष्टवान् तेन खड्गेन द्वित्रान् मारितवान् एतद् दृष्ट्वा इतरे अपि पलायनं कृतवन्तः अवगच्छति वा योधः योधः इत्युक्ते सैनिकः तस्य हस्तात् हस्ततः माधवः खड्गम् खड्गम् इत्युक्ते स्वर्ड् आकृष्टवान् आक्रमणं कृष्टवान् हि ओवर्पावर्ड् तेन खड्गेन द्वित्रान् मारितवान् हि किल् टु आर् त्री एतद् दृष्ट्वा इतरे अपि अन्ये अपि पलायनं कृतवन्तः तरुणी भयकम्पिता आसीत् भयकम्पिता आसीत् माधवः तां तस्याः गृहं प्रापितवान् प्रापितवान् सो दट् इस् अ निच् प्रयोगः तस्याः गृहं सा तस्याः गृहं गतवती इति अनुमानं कृत् सो बाल माधवः तां तस्याः गृहम् आनीतवान् आनीतवान् तदनन्तरम् आश्रमं प्रत्यागतवान् युद्धसमये माधवस्य शरीरं क्षतविक्षितम् आसीत्
भगिनि क्षम्यताम् अहं गच्छामि क्षम्यताम्
अस्तु भगि अहं प्रेषयामि कथां प्रेषयामि क्षत इत्युक्ते ऋणम् अभवत् एतत् दृष्ट्वा गुरुः पृष्टवान् किम् अभवत् किं सञ्जातम् इति माधवः सर्वं वृत्तान्तं निवेदितवान् यत् किम् अभवत् सर्वम् उक्तवान् तदा तत्रत्याः केचन गुरुं पृष्टवान् ब्राह्मणः युद्धं कर्तुम् अर्हति किम् एतत् धर्मविरुद्धं किल कथं वा ब्राह्मणयुवकः युद्धं करोति तत् सम्यक् नास्ति खलु धर्मस्य विरोधः खलु इति तदा गुरुः उक्तवान् माधवः युक्तमेव आचरितवान् सम्यक् एव कृतवान् पूजार्हाणां रक्षणं करणीयम् एव अतः माधवः श्रेष्ठं धर्मम् आचरितवान् कीदृशधर्मम् आचरितवान् अग्रे पश्यामः एषः एव माधवः ततः परं विद्यारण्यः इति प्रसिद्धः एषः एव विजयनगरं स्थापितवान् एषः युवकः एव विजयनगरं स्थापितवान् अस्तु धन्यवादः समयः अभवत् समापयामः शान्तिमन्त्रम् उक्त्वा ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः धन्यवादः